इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। पश्चिम एशियायाः स्थितौ पेट्रोलियम अशोधित तैल वातीन्धन ऊर्जा उर्वरकादीनां च क्षेत्राणां स्थितिं समीक्षितुम् अद्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उच्चस्तरीय उपवेशनस्य अध्यक्षता कृता। प्रशासनेन पुनः आश्वासितं यत् सम्पूर्णे देशे आवश्यकेन्धनानाम् अभावः नास्ति इति। तैलशोधागाराणि उच्चक्षमतया कार्यं कुर्वन्ति। पेट्रोल डीजल ईंधनयोः पर्याप्तं भण्डारम् उपलभ्यते। आपणेषु अभावः नास्ति। केन्द्रीय जलशक्ति मन्त्रिणा सी आर पाटिल वर्येण अद्योक्तं यत् 15 कोट्यधिकेषु ग्रामेषु ग्रामीण गृहेषु नल जल सम्पर्कः प्राप्तः अस्ति, येन स्वास्थ्यस्य अभिवृद्धिः, जीवनस्तरस्य वृद्धिः, महिलानां गौरवः च वर्धितः। गतवर्षे भयोत्पादन सम्बद्धानां घटनानां 6% वृद्धेः अनन्तरं पाकिस्तानदेशः प्रथमवारं वैश्विक भयोत्पादन सूचकांके प्रथमस्थाने अस्ति। स्क्वैश क्रीडायां वीर चोटरानी मुंबई नगरे 28,000 इंडियन ओपन स्पर्धायां पुरुष एकल अंतिम स्पर्धायां अभय सिंहेन सह स्पर्धिष्यति। अथ वार्ताः विस्तरेण। पश्चिम एशियायाः स्थितौ पेट्रोलियम अशोधित तैल वातीन्धन ऊर्जा उर्वरकादीनां च क्षेत्राणां स्थितिं समीक्षितुम् अद्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उच्चस्तरीयोपवेशनस्य अध्यक्षता कृता। नवदिल्ल्याम् आयोजितस्य सम्मेलनस्य सम्पूर्णे देशे अविराम आपूर्तिं सुस्थिरं रसदं दक्षं वितरणं च सुनिश्चेतुं केन्द्रितः आसीत्। रक्षामन्त्री राजनाथ सिंहः, गृहमन्त्री अमितशाहः, वित्तमन्त्री निर्मलासीतारामनः, विदेशमन्त्री एस जयशंकरः, कृषिमन्त्री शिवराजसिंहचौहानः, पेट्रोलियम प्राकृतिक गैस मन्त्री हरदीप सिंह पुरी, वाणिज्योद्योगमन्त्री पीयूष गोयलः, रसायन उर्वरक मन्त्री जेपी नड्डा, नागरिक उड्डयन मंत्री के राम मोहन नायडू, ऊर्जा मंत्री मनोहर लालः, सूचना प्रसारण मंत्री अश्विनी वैष्णवः च सभायाम् उपस्थिताः आसन्। प्रशासनेन पुनः आश्वासितं यत् सम्पूर्णे देशे आवश्यकेन्धनानाम् अभावः नास्ति इति। तैलशोधागाराणि उच्चक्षमतया कार्यं कुर्वन्ति। पेट्रोल डीजल ईंधनयोः पर्याप्तं भण्डारम् उपलभ्यते। आपणेषु अभावः नास्ति। एकस्मिन् वक्तव्ये पेट्रोलियम प्राकृतिक गैस मन्त्रालयस्य अवदत् यत् एलपीजी सिलेंडर इत्यस्य वितरणं सामान्यम् एव अस्ति। गुप्तरूपेण संग्रहणम् अपि न्यूनम् अभवत्। राज्यानां कृते वाणिज्यिक एलपीजी वितरणम् अपि वर्धितम् अस्ति, यत्र शैक्षिकसंस्था, चिकित्सालयादि प्रमुखक्षेत्राणां कृते प्राधान्यं प्रदत्तमस्ति। अत्रान्तरे पत्तनपोत परिवहन जलमार्ग मन्त्रालयः अवदत् यत् नौवहनस्य गतिविधिः, नौकाश्रय प्रचालनं, भारतीयानां नाविकानां सुरक्षां च निकटतया निरीक्षमाणः अस्ति, येन समुद्रीय व्यापारस्य निरन्तरता सुनिश्चितं भवेत्। केन्द्रीय जलशक्ति मन्त्रिणा सी आर पाटिल वर्येण अद्य उक्तं यत् 15 कोट्यधिकेषु ग्रामीण गृहेषु नल जल सम्पर्कः प्राप्तः अस्ति, येन स्वास्थ्यस्य अभिवृद्धिः, जीवनस्तरस्य वृद्धिः, महिलानां गौरवः च वर्धितः। मन्त्रे 28,000 जलमहोत्सवस्य समापन कार्यक्रमस्य भागत्वेन आयोजिते सुजल ग्राम संवादस्य समये पञ्चराज्याणां सदस्येभ्यः आभासीय माध्यमेन सम्बोधयनासीत्। प्रधानमन्त्रिणा नरेन्द्रमोदिना देशे निर्वाचित सर्वकारस्य दीर्घकालं यावत् सेवायमानः प्रमुखः भूत्वा भारतीय राजनीतेः ऐतिहासिकं सोपानं प्राप्तम्। एतेनैव प्रधानमन्त्रिणा मोदिना पवनकुमार चामलिंग इत्यमुम् अतिक्रमितवान्। श्रीयोहि सिक्किम राज्यस्य मुख्यमंत्री रूपेण 3,900,000+ दिनानि यावत् कार्यम् अकरोत्। सः इदानीं सर्वकारस्य प्रमुखत्वेन 1,300,000+ दिनानि पूरितवान्। गुजरातस्य मुख्यमंत्री रूपेण, प्रधानमंत्री रूपेण च स्वस्य कार्यावधिं संयोज्य नेतृत्वे स्वस्य 25वें वर्षे प्रविष्टवान्। एतदेकं दुर्लभं महत्वपूर्णं च उपलब्धिरूपेण दृश्यते यत् सर्वोच्चस्तरे अविराम जनसेवां, राजनैतिक नेतृत्वं च प्रतिबिम्बयति। स्वस्य कार्यकाले प्रधानमन्त्री मोदी गुजरात राज्यस्य दीर्घतम सेवायुक्तः मुख्यमंत्री, मुख्यमंत्रीरूपेण दीर्घतम पूर्वानुभवयुक्तः प्रधानमन्त्री चेति अनेकानि उल्लेखनीयानि कीर्तिमतं स्थापितवान्। श्रीमोदी प्रथमवारं 1,000,000 अक्टूबर मासस्य सप्तमे दिनांके गुजरातस्य मुख्यमंत्रीरूपेण कार्यभारं स्वीकृतवान्। 14,000,000 मई 21 दिनांक पर्यन्तं दायित्वं निरवहत्। राष्ट्रीय राजनीतिं प्रति गमनात् पूर्वं 13 वर्षाणि यावत् राज्यस्य नेतृत्वं कृतवान्। सः 14,000,000 वर्षे मई 26 दिनांके भारतस्य 14वां प्रधानमंत्रीरूपेण शपथग्रहणं कृतवान्। लोकसभायां पूर्ण बहुमतं प्राप्तः प्रथमः कांग्रेसेतर नेता अभवत्। सिक्किम राज्यस्य पूर्व मुख्यमन्त्रिणः पवन कुमार चामलिंग वर्यस्य कीर्तिमतम् अतिक्रम्य प्रधानमन्त्री नरेन्द्र मोदी भारत सर्वकारस्य दीर्घतमः सेवा प्रमुखः अभवदिति केन्द्रीय गृहमन्त्रिणा अमितशाहेनोक्तम्। एकस्मिन् सामाजिकान्तर्जालीये पटले श्रीशाहः सेवायाः, परिश्रमस्य, अचञ्चल प्रतिबद्धतायाः च मूलाधारः अवर्णयत्। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र, अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। G7 देशाः पश्चिम एशियायाः बहुविध देशेषु नागरिकानाम् उपरि, प्रमुखसंरचनायाः उपरि च ईरानदेशस्य आक्रमणानां दृढतया निन्दितवन्तः। कनाडा, फ्रांस, जर्मनी, इटली, जापान, यूके, अमेरिका देशानां च प्रतिनिधित्वं कुर्वन्तः G7 विदेशमन्त्रिणः यूरोपीय संघस्य उच्च प्रतिनिधिभिः सह संयुक्त वक्तव्ये दृढतया प्रभावित देशैः सह ऐक्यं प्रकटितवन्तः। वक्तव्ये उक्तं यत् ईरान देशात् तस्य प्रतिनिधिभिः च कृत आक्रमणानां सन्दर्भे अस्मिन् क्षेत्रे स्वसहभागिनां कृते समूहः समर्थनं प्रददाति। G7 देशाः ख्यापितवन्तः यत् ईरान देशस्य कार्यैः न केवलं लक्ष्यीकृता देशाः संकटापन्नाः अभवन्, अपितु क्षेत्रीय वैश्विक सुरक्षायाः कृतेऽपि विस्तृतः भयः अस्ति, येन तेहरानः तत्क्षणमेव स्वसैन्य कार्याचरणान् स्थगयितुम् आग्रहं कृतवन्तः। समूहेन महत्वपूर्णानां समुद्रीय मार्गाणां, वैश्विकापूर्ति श्रृंखलानां च सुरक्षां सुनिश्चेतुं महत्वोऽपि अधोरेखितम्। विशेषतः सामरिकदृष्ट्या महत्वपूर्णस्य होर्मुज जलसन्धिं प्रति G7 विदेशमन्त्रिणः उक्तवन्तः यत् ते वैश्विक ऊर्जा आपूर्तिं समर्थयितुम् आवश्यकानि उपायानि कर्तुं सज्जाः सन्ति। बिहार राज्यम् अद्य स्वकीयः 14,100 स्थापना दिवसः परिपालयति। ब्रिटिश कालावधौ 12,900 वर्षे मार्च मासस्य 22 दिनांके बिहार राज्यं बंगाल प्रदेशात् पृथक् भूत्वा नूतन राज्यरूपेण अस्तित्वम् अवाप्नोत्। अयमेव दिवसः बिहार दिवसत्वेन आचर्यते। अवसरेऽस्मिन् राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः सीपी राधाकृष्णनवर्यः, प्रधानमन्त्री नरेन्द्र मोदी च अस्य राज्यस्य जनेभ्यः शुभकामनाम् अयच्छन्। अद्य बांग्लादेशस्य कुमिला नगरे रेलवे क्रॉसिंग इत्यत्र रेल यात्रिबस यानयोः समाघाते न्यूनातिन्यूनं 12 जनाः मृताः, अन्ये च नैके व्रणिताः। व्यस्ततस्य ढाका चटगांव राजमार्गस्य समीपे कुमिला नगरस्य पाडुआ बाजार कांग्रेस क्रॉसिंग इत्यत्र एषा दुर्घटना अभवत्। यदा ढाका नगरं प्रति गच्छन्ति रेलयानेन रेलमार्गे प्रविष्टं बसयानं समाघातितम्। विद्युदुत्पादनम् आधारभूतम् आवश्यकम् इति केन्द्रीय ऊर्जा मन्त्री मनोहरलालः अवधानं दत्तवान् यत् सामान्यजनेभ्यः न्यूनमूल्येषु विद्युत् प्रदानम् आवश्यकम्। नवदिल्ल्यां 26,000 भारत विद्युत् शिखर सम्मेलनस्य समापन सत्रम् अभिसम्बोधयन् मन्त्री महोदयः इदमुक्तवान्। गतवर्षे भयोत्पादन सम्बद्धानां घटनानां 6% वृद्धेः अनन्तरं पाकिस्तानदेशः प्रथमवारं वैश्विक भयोत्पादन सूचकांके प्रथमस्थाने अस्ति। IEP इत्यनेन प्रकाशितस्य 26,000 वैश्विक भयोत्पादन सूचकांकस्यानुसारं पाकिस्तानदेशे भयोत्पादनात् मृत्युः अधुना उच्चतमस्तरे अस्ति। स्क्वेश क्रीडायां वीर चोटरानी मुम्बईनगरे 27,000 इंडियन ओपन स्पर्धायां पुरुषेकल अंतिम स्पर्धायां अभय सिंहेन सह स्पर्धिष्यति। महिलानां एकल अंतिम स्पर्धायां अनाहत सिंहः अद्य सायंकाले इजिप्ट देशस्य हाना मोताज इत्यनया सह स्पर्धिष्यति। इति वार्ताः।